एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। सत्तारूढाभ्याम् प्रमुखदलाभ्याम् नेपाली कांग्रेस दलेन नेकपा एमाले दलेन च अद्य उपवेश्यमाने प्रतिनिधि सभायाः उपवेशे अनिवार्यतया उपस्थातुम् स्वदलस्य सांसदाः निर्दिष्टाः सन्ति। अद्य दिवा एकवादने उपवेश्यमाने प्रतिनिधि सभायाः उपवेशे सर्वकारेण आनीतः एतद्विक्रमवर्षीयाः सुशासन प्रवर्धन सार्वजनिक सेवा प्रवाह सम्बद्धान् केषाञ्चिद् नेपालाधिनियमान् संशोधयितुं निर्मितः अध्यादेशः, आर्थिक कार्यविधि वित्तीयोत्तरदायित्व प्रथम संशोधनाध्यादेशः, आर्थिक व्यावसायिक वातावरण सुधार निवेशाभिवृद्धि सम्बद्धान् केषाञ्चिद् नेपालाधिनियमान् संशोधयितुं निर्मितः अध्यादेशः, सहकारी सम्बद्धान् केषाञ्चिद् नेपालाधिनियमान् संशोधयितुं निर्मितः अध्यादेशः, नैजीकरण सम्बद्धः प्रथम संशोधनाध्यादेशश्च संसदि पारिति कर्तव्यः वर्तन्ते इत्यतः उभाभ्याम् दलाभ्याम् नैजः सांसदः अनिवार्यतया उपस्थातुं निर्दिष्टः वर्तन्ते। सर्वकारेण इति अध्यादेशः अद्य संसदि प्रस्तूयमानः सन्ति। प्रधानमन्त्री केपी शर्मा ओली निगदति व्यावसायिकतायाः उद्यमशीलतायाश्च माध्यमेन वृत्त्युपार्जनस्य अवसरः निर्मेया। नेपाल ट्रेड यूनियन महासंघ नाम्न्याः संस्थायाः अष्टसप्ततितमस्य वार्षिकोत्सवस्य अवसरे ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली वृत्त्युपार्जनावसराः न्यूनाः सन्तीति कथनापेक्षया उद्यमशीलतायाः विकासेन वृत्त्युपार्जनावसराः स्वतः निर्मातुं शक्यन्ते इति अवदत्। प्रधानमन्त्री ओली केनापि व्याजेन निर्धारितात् न्यूनतम पारिश्रमिकात् न्यूनेन श्रममूल्येन श्रमिकान् कर्मणि यदि कोऽपि नियोजयति स दण्डभाग् भवतीति अभाषत। हिमालयेषु हिमान्यः श्रवणेन मानवसभ्यता एव प्रभाविता जायमानास्तीति विषये प्रधानमन्त्री ओली आहिमालयात् समुद्रपर्यन्तस्य निखिलभूभागस्य संरक्षणस्य अवधारणया सह सहकार्यार्थं विश्वसमुदायम् अनुरुणत्। प्रधानमन्त्री ओली राष्ट्रियं हितं राष्ट्रियं आन्दोलनं विश्वव्यापितया स्वीकृतं लक्ष्यञ्च पूरयितुं कार्यप्रवर्तनायै नेपाल ट्रेड यूनियन महासंघम् अनुरुणत्। राष्ट्रपतिः रामचन्द्र पौडेलः संविधानस्य भावनानुसारेण नागरिकाणां स्वास्थ्यार्थं समानावसरान् प्रदातुं स्वास्थ्यसेवायाः गुणस्तरे वृद्ध्यर्थं च ध्यानं प्रदातुं बलं ददाति। नेपाल चिकित्सक संघेन ह्य आयोजिते कार्यक्रमे राष्ट्रपतिः पौडेलः देशेन दक्षाणां विज्ञानां चिकित्सकानां उत्पादनाय विहितं निवेशनं संविधानस्य मर्मणः अनुसारेणैवास्तीति प्रावोचत्। राष्ट्रपतिः पौडेलः नेपाली जनतया महता संघर्षेण त्यागेन बलिदानेन च प्राप्तेन संघीय लोकतान्त्रिक गणतन्त्रात्मक संविधानेन नेपाली नागरिकान् स्वास्थ्य शिक्षा प्रभृतेः आधारभूतायाः आवश्यकतायाः प्रत्याभूतेर्व्यवस्था सुनिश्चिता अस्तीति अगदत्। जुम्ला जनपदस्य 30 स्वास्थ्य संस्थासु वैद्युत स्वास्थ्य सूचना व्यवस्थापन प्रणाल्या कार्यं प्रारब्धमस्ति। अनलाइन माध्यमेन अभिलेखान् संकलयितुं जनपदस्य 8 स्थानीय स्तराणां 30 स्वास्थ्य संस्थासु वैद्युत स्वास्थ्य सूचना व्यवस्थापन प्रणाल्या कार्यं प्रारब्धमस्तीति जुम्ला जनस्वास्थ्य सेवा कार्यालयस्य प्रमुखः कृष्ण सापुजा असूचयत्। स्वास्थ्य सेवायाः सम्पूर्णं विवरणं दैनिकरूपेण सार्वजनिक क्रियमाणं तथ्याङ्कं व्यवस्थितं प्रभावपूर्णं च विधातुं पालिकायाः षाणाम् ओडाक्षेत्राणां स्वास्थ्य संस्थासु वैद्युत स्वास्थ्य सूचना प्रणाल्याः माध्यमेन संसूचनस्य व्यवस्था विहिता अस्ति। गृहमन्त्री रमेश लेखकः पूर्वेद्युः रूपन्देही जनपदस्य भैरहवावर्तिनः गौतम बुद्धान्तरराष्ट्रिय विमानस्थलस्य निरीक्षणं विहितवान् अस्ति। गौतम बुद्धान्तरराष्ट्रिय विमानस्थलस्य निरीक्षणम् अवलोकनं च विदधानः गृहमन्त्री लेखकः गौतम बुद्धान्तरराष्ट्रिय विमानस्थलात् पर्यटन क्षेत्रं प्रवर्ध्य नेपालस्य आर्थिक विकासाय बलं दातुं शक्यते इति अभाषत। गौतम बुद्ध अन्तर्राष्ट्रिय विमानस्थलेन प्रचुराः सम्भावनाः संगृहीताः सन्तीति चर्चयन् गृहमन्त्री लेखकः अनेन पर्यटनस्य प्रवर्धनेन सहैव देशेन आर्थिक लाभ प्राप्स्यते इति उदैरयत्। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः निगदति सहायक राजमार्ग केन्द्रितेन अभियानेन जनतया सह दलस्य सम्बन्धः सुदृढः विहितोऽस्ति। नेपालगंज विमानस्थले ह्य पत्रकारैस्सह अध्यक्षः प्रचण्डः जनतायाः मनसो विषयान् जनतामेव गत्वा बोद्धुम् अभियानं संचालितमस्ति इति अभाषत। जनता समाजवादी दल नेपालेन सर्वकाराय प्रदत्तं समर्थनं पूर्ववत् स्थापयितुं निर्णीतं वर्तते। जसपा नेपाल केन्द्रीय समितेः ह्य काष्ठमण्डपे सम्पन्नेन उपवेशेन भ्रष्टाचारस्य अन्ताय सुशासनस्य स्थापनाय विकासाय संविधानस्य संशोधनाय च वर्तमान सर्वकारेण कार्यं कर्तुं शक्तं नास्ति तथापि सर्वकाराय प्रदत्तं समर्थनं पूर्ववत् स्थापयितुं निर्णीतमिति दलप्रवक्ता मनीष सुमनः अज्ञापयत्। उपवेशेन भूमि सम्बद्धान् कतिचिन् नेपालाधिनियमान् संशोधयितुं निर्मितेन एतद् विक्रमवर्षीयेण अध्यादेशेन विना अन्येषां पञ्चानाम् अध्यादेशानां समर्थनं कर्तुं च उपवेशेन निर्णीतमस्ति इति प्रवक्ता सुमन असूचयत्। एवमेव उपवेशेन पाथिभरा क्षेत्रे निर्मीयमाणस्य केवल कारयानस्य विरुद्धे संचालिताय न केवल कारयानम् इति अभियानाय समर्थनं कृत्वा वार्तायाः संवादस्य च माध्यमेन समस्यां समाधातुं सर्वकारस्य ध्यानाकर्षणाय निर्णीतमस्ति इति च दलप्रवक्ता सुमन अज्ञापयत्। नेमकिपा नाम्नो नेपाल मजदूर किसान पार्टी इति दलस्य अध्यक्ष पदे नारायण मान विजुक्षे पुनः सर्वसम्मत रूपेण प्रचितो वर्तते। नेमकिपा दलस्य अष्टम महाधिवेशनात् विजुक्षे अष्टमवारं अध्यक्ष पदे प्रचितोऽस्ति। विजुक्षे इत्यस्य नेतृत्वे एकत्रिंशदुत्तर द्विसहस्रतम विक्रम वर्षस्य माघ मासस्य दशमे दिवसे नेमकिपा दलस्य स्थापना सम्भूता आसीत्। भक्तपुरे लब्धजन्मा 85 वर्षाणां वयस्कः विजुक्षे नेमकिपा दलस्य स्थापना कालादेव अध्यक्षपदे वर्तते। भारत चीन देशयो योजकस्य राष्ट्रिय गौरवस्य काली गण्डकी तटीय मार्गस्य अन्तर्गते मालडुंगा फर्सी खण्डे वज्रीकरणस्य कार्यं सम्पन्नमस्ति। म्याग्दी मुस्ताङ जनपदयोः राष्ट्रिय राजमार्गेण योजकस्य मालडुंगा बेनी मार्गस्य अन्तर्गते मार्गखण्डे पर्वतस्य कुष्मा नगरपालिकायाः प्रथमौडा क्षेत्रस्य मालडुंगा स्थानात् जलजला ग्रामपालिकायाः अष्टमौडा क्षेत्रस्य नागलीवाङ स्थानस्य फर्से क्षेत्रं यावत् वज्रीकरणस्य कार्यं सम्पन्नमस्ति। योजनायाः उपस्थपतिः सुदङ जंकार्की मालडुंगा फर्से मार्गखण्डे शतद्वय मीटर मिताधिक 5 किलोमीटर मितः मार्गं कृष्ण वज्री कृतोस्तीति असूचयत्। सोलुखुम्बु जनपद प्रशासन कार्यालयेन पालिकाभ्य एव राष्ट्रिय परिचयस्य वितरणं विधीयते। जनपद प्रशासन कार्यालयेन ह्य सूचनां प्रकाश्य सम्बद्ध पालिकाभ्य एव 10,000 48,000 शतस्य च परिचय पत्राणां वितरणस्य कार्यं परश्वो त्रयोविंशात् दिवसात् प्रारप्स्यते इति ज्ञापितमस्ति। काष्ठमण्डपस्य मैतीदेवी स्थाने निर्मिते श्री गोदा वेणु गोपाल भगवतः मन्दिरे भगवतः प्राणप्रतिष्ठा कार्यक्रमः अद्यतः प्रारभमाणो वर्तते। भारतस्य तोताद्रिमठस्य पीठाधीशस्य जगद्गुरुः मधुर कवि रामानुज जीयर स्वामिनः प्रमुखाचार्यत्वे भगवतः प्राणप्रतिष्ठा कार्यक्रमोऽसौ सम्पद्यमानोऽस्तीति मन्दिरस्य मठाधीशः स्वामी यतीन्द्राचार्यः असूचयत्। कार्यक्रमः फाल्गुन मासस्य 27 दिवसं यावत् संचलति इति समाचारः।